ॐ सहना भवतु
सहनौ
सह वीर्यं करवामहे
तेजस्विनामधीतमस्तु
मा
विद्विषावहे
ॐ
शान्ति
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 सुक्ति सुभाषितं सुभाषितम् अस्ति अन्नदानं परमदानं विद्यादानम् अतः परम् अनेकक्षणिका तृप्तिः यावत् जीवनं च विद्याया अन्नदानं श्रेष्ठं दानम् अस्ति अन्नदानं श्रेष्ठं दानम् अस्ति अन्नदातात् श्रेष्ठं दानं विद्यादानम् अस्ति सो एस् कम्पेर्ड् टु द डोनेशन् आफ् द अन्न विद्यादानम् इस् बेटर् अन्नदानात् श्रेष्ठतरं दानं विद्यादानम् अस्ति यतः अनेन कञ्चित् कालं यावत् तृप्तिः भवति परन्तु विद्या जीवनपर्यन्तं तृप्तिः भवति सो विद् अन्न किञ्चित् कालमेव तृप्तिः भवति परन्तु विद्या जीवनपर्यन्तं फलं ददाति तृप्तिः भवति सो अन्नदानं परं दानं विद्यादानम् अतः परम् अनेन क्षणिका तृप्तिः यावत् जीवनं च विद्यया अन्नदानं परं दानं सो वी हेव् मैट् हेव् हर्ड् सिमिलर् थिङ्ग्स् इन् अदर् लेङ्ग्वेजेस् एनिबडि केन् रिमेम्बर् एनिथिङ्ग् सिमिलर् इन् अदर् लेङ्ग्वेज् Okay, let's move on to the Gitam. Are you okay? We will do the Gitam in the end, just before we finish. Let's do the, first some Abhyasam. So we did last time, Agya and last time we did Saptami Vibhakti and some of the other we did the practice for that. So we will do some more of the Vartman Kalam. So and to do with the Agya and imperative mode. Did we do imperative mode last time? Please can somebody remind me?
Imperative mode is which one?
Yes, we did remember. Imperative is the Agya or Prarthana mode.
That we did. Pratham Purusha, Madhyam Purusha, that we did for Lot Lakar, right?
Yes, for Lot Lakar.
We did that.
So let's see if we can... revise and then we can go forward. So here it shows the all the lat lakar forms that ramaha patati ramoho patataha ramaha patanti tvam patasi yuvam patataha yuyam patatha aham patami avam patavaha vayam patamaha. So, Bhagini, can I request using say, Gita, Gita khadati. Gita khadati. Can you say all the 9 forms for me, please?
Yes, yes. I'll try. Gita pathati.
Khadati.
Gita khadati. Gitau khadatah.
Gite. Shumitam.
Gite. Okay. Gite khadatah. Gitaah khadanti. Swam khadasi. Yuvam khadathah. Yuyam khadathah. Aham khadami. Avam khadavah. Vayam khadamah.
Very good. So now, dhanyavad bhagini. Krishna Mohade, can you do for yuvakaha, yuvakaha hasati? Yuvakaha hasati.
Yuvaha hasati. Yuvau hasataha. Yuvaha hasanti. Tvam hasati. Tvam hasati. Tvam hasataha. Yuyam hasata. Aham asami. Avam asavaha. Vayam asamaha.
I think only this one, it's not the Tvam, it's Yuvam. Dhanyavad. Next.
Yuvam.
Then try, let's see, Amit Modi, can you do for this one? For Rodati. Rodati Balakaha. Instead, use a different one. Upavishati. Upavishati. Balakaha Upavishati. In Lotlakal mode. Amit.
Hello.
Hello.
Yeah, what is the meaning of Upavisha?
To sit down. Upavishati.
Okay, so I'll use Balakaha Upavishatu. Balau Upavishtam. Balaha Upavishantu. Swam Upavishat. Yuvam Upavishatam. Yuvam Upavishat. Aham Upavishnani.
Upavishani.
Aham Upavishani. Avam Upavishava. And Vayam Upavisham.
Upavishama. So only thing is here, in like in here and in here, the it is full. So and when we are saying in Sanskritam, so it should not sound like that. It is, for example, patath. It's not patatha. It is patatha. So ta is full. Pathama. Otherwise, it. When somebody is listening, there might be confusion whether we are saying with the halanta or we are saying full. Ma.
Upavishata.
Upavishata. So next, Seema Bhagini, can you do for say Balika, Balika Dhavati.
Balika Dhavati, okay.
So remember, Balika is Istrilingam.
Hmm. बालिका धावतु ओके बालिका धाव देन
बालिके
बालिके धावतं
तां धावितां
धावतां बालिके बालिकाहं धावन्तु बालिका धावत् बालिका धावतं बालिका धावत्
No, therefore, Madhyam Purush, it does not change. It always says Tvam, Yuvam, Yuyam. It will never change because you are talking to you, the some person in front of you.
Okay.
So Tvam, Tvam, Dhavat, Tvam Dhava, Yuvam Dhavatam, Yuyam Dhavat.
Okay.
Aham, Avam,
Dhavati.
तवानि
धवानि आवां धवाव वयं धवाम
ओके वेरि गुड् नौ रमेश्वरी सोरि रामस्वामीजी कुड् यु डु जस्ट् यूसिङ्ग् ओल् दीस् फोर्म्स् से नारायणः namati
what is the verb
namati
namati okay narayanah namatu narayano namatam narayanah namantu I continue
Yes, for Tvam and Aham. Okay.
Tvam Namar Tvam Namatam
Yuvam Yuvam
Oh, Yuvam Then Yuyam Navatha अहं नवानि आवां नवाव वयं नवाम
सो इट् इस् नारायणः नमतु नारायणौ नमतां राम नारायणाः नमन्तु त्वं नम युवां नमतं यूयं नमत अहं नमानि आवां नमाव वयं नवाम सो थेङ्क् यु वेरि मच् वेरि गुड् सो नौ वी केन् मूव् आन् टु द एव्रिबडि सीम्स् टु बि क्लियर् अबौट् दिस् सो नौ वी हेव् द Vasaraha, days of the week. So, first do use our own, Ravi Vasaraha, Som Vasaraha. In other languages, you might say Ravivara in Hindi, possibly, or Monday. So, we are adding the day in the end. Or Vasara in Hindi. Here we add Vasaraha. So Bhanu Vasaraha, Ravi Vasaraha, or Som Vasaraha, Indu Vasaraha, Mangal Vasaraha, Bhom Vasaraha, Budh Vasaraha, Somya Vasaraha, Guru Vasaraha, Shukra Vasaraha, or Bhrigu Vasaraha, Chani Vasaraha, स्थिर वासरः So when we are saying, if I say adhya, adhya chanivasaraha, adhya chanivasaraha, shwaha, shwaha, shwaha bhanuvasaraha, or ravivasaraha, shwaha ravivasaraha, adhya chanivasaraha, shwaha ravivasaraha. परश्वः मङ्गलवासरः क्षम्यतां परश्वः श्वः भानुवासरः परश्वः सोमवासरः परपरश्वः मङ्गलवासरः अद्य शनिवासरः श्वः रविवासरः परश्वः सोमवासरः परपरश्वः मङ्गलवासरः नौ अद्य शनिवासरः अद्य शनिवासरः यः शुक्रवासरः यः शुक्रवासरः पर यः गुरुवासरः पर यः बुधवासरः अद्य शनिवासरः अद्य शनिवासरः अद्य शनिवासरः यः भानुवासरः क्षम्यतां शुक्रवासरः पर यः गुरुवासरः पर यः बुधवासरः So, can somebody repeat the whole, assuming that today is Saturday.
Bhagini, can I try? Aparna?
Yeah, Aparna Bhagini. Mm-hmm. Okay.
Adhya Shani Vasaraha, Shuvaha Bhanu Vasaraha, Parashvaha सोमवासरः परपरश्वः मङ्गलवासरः अद्य शनिवासरः ह्य शुक्रवासरः परह्य गुरुवासरः परह्य बुधवासरः
वेरि गुड् सो नौ कृष्णन् महोदय केन् यू रिपीट् डू assuming that today is a Sunday. Kalpanam karotu ki adhya ravivasrah. Mohde, unmute karotu, Krishnan Mohde.
Yes, madam. Anya ravivasrah, yeram. इन्दुवासरः भुञ्जां सोमवासरः
जस्ट् होल्ड् आन् अद्य रविवासरः
अद्यवासरः येहां सोमवासरः हलो
श्वः सोमवासरः श्वः श्वः सोमवासरः परश्वः मङ्गलवासरः परपरश्वः बुधवासरः ओके लेट् मी गो बेक् हियर् सो अद्य सो इफ् यु लुक् इन् द मिडल् अद्य देट् अद्य इस् टुडे श्वः इस् टुमोरो डे आफ् परश्वः डे आफ्टर् टुमोरो एण्ड् day after tomorrow is parparshvah. Then we go back yesterday, yaha, day before yesterday pariyah, and day before yesterday parpayah. Adya, if you look at adya bhanuvasraha, then shvaha somvasraha, parishvaha mangalvasraha, parparishvaha budhvasraha. Adya bhanuvasraha yah chanivasraha, pariyah shukravasraha, parpayah guruvasraha. No.
अद्य बुधवासरः, श्वः गुरुवासरः, परश्वः शुक्रवासरः, परपरश्वः शनिवासरः. ह्य मङ्गलवासरः, परह सोमवासरः, परपरह्य भानुवासरः.
वेरि गुड्. रामस्वामीजि, could you do that? Assume अद्य मङ्गलवासरः, कल्पनां करोतु.
अद्य मङ्गलवासरः, स्वाः बुधवासरः, परस्वाः गुरुवासरः, परपरस्वाः शुक्रवासरः, ह्यः सोमवासरः, परह्यः भानुवासरः, परपरह्यः शनिवासरः.
Very good. So, very good. Now, Deepan Mode. Namaskarah. Adhya Shukravasarah.
Namaskarah, ma'am.
Namaskarah.
Swaha Sanivasarah. Paraswaha Ravivasarah. Praparaswaha Samavasarah. Here,
अद्य शुक्रवासरः,
शुक्रवासरः, परः गुरुवासरः, प्रपरः बुधवासरः.
सो यः अद्य शुक्रवासरः, अद्य शुक्रवासरः, यः गुरुवासरः, पर्यः बुधवासरः, परपर्यः मङ्गलवासरः. सो सो सीमा भगिनी, अद्य बुधवासरः.
अद्य बुधवासर, सो वी हैव टू स्पीक this one, Somyavasarah or Budhvasarah?
No, whichever you like, whichever is easy for you.
Okay. Shva Guruvasarah, Varashva Shukravasarah, Prapashvara Sanivasarah, Parashva Sanivasarah, Hya मंगल वासरः, परह्य सोमवासरः, भानुवासरः.
धन्यवादः. वेरी गुड. सो नाउ
मैडम,
यस, आई एम कमिंग टू यू महोदय. सो इफ यू कैन इमेजिन, अद्य मङ्गलवासरः,
अद्य मङ्गलवारः, श्वः बुधवारः, परश्वः गुरुवारः, बृहस्पतिवारः, परपरवासः शुक्रवारः सोमवारः पर्परः रविवारः पर्परः शनिवारः
वेरि गुड् पर्पर् यः शनिवासरः वासरः वासरः
स्थिरवासरः
वेरि गुड् न So, कदा कदा अद्य 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 शनिवासरः अद्य शनिवासरः सो इफ् द क्वश्चन् इस् शनिवासरः कदा कदा शनिवासरः देन् वि द आन्सर् इस् क्षम्यताम् अद्य अद्य शनिवासरः कदा शुक्रवासरः शुक्रवासरः यः शुक्रवासरः यः शुक्रवासरः अद्य अद्य शनिवासरः कदा कदा बुधवासरः अद्य शनिवासरः कदा अद्य अद्य शनिवासरः कदा कदा बुधवासरः अद्य शनिवासरः पर्पर्यः बुधवासरः अद्य शनिवासरः पर्यः शुक्रवासरः पर् यः शुक्रवासरः पर्यः गुरुवासरः पर्पर्यः बुधवासरः सो द क्वश्चन् वेन् कम्स् अद्य अद्य इमेजिन् कल्पनां करोतु अद्य अद्य मङ्गलवासरः बुधवासरः कदा अद्य मङ्गलवासरः श्वः बुधवासरः अद्य 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 शुक्रवासरः कदा कदा गुरुवासरः ह्यः गुरुवासरः सो वेन् द क्वश्चन् इस् वेन् ओर् कदा कदा देन् द आन्सर् यू केन् गिव् सो वि हेव् वि डिड् द टैम् एस् वेल् सो यू केन् यूस् द कदा फोर् टैम् एस् वेल् सेम् कदा लैक् कः समयः अस्ति कदा गच्छति भवति कदा गच्छति अहं नववादने गच्छामि अहं कदा कदा इस् क्वश्चन् मार्क् फोर् टैम् वेन् एवर् द शब्द कम्स् इन् देन् इट्स् ए सूचक आफ् समयः सूचकः शब्दः अस्ति द शब्दः समय सूचकः शब्दः अस्ति सो भवती भवती कदा उत्तिष्ठति अहं पञ्चवादने उत्तिष्ठामि अहं पञ्चवादने उत्तिष्ठामि बालकः कदा पाठशालां गच्छति बालकाः सार्ध अष्टवादने पाठशालां गच्छति वयं कदा पाठयामः वयं षड्वादने पाठयामः वि पठामः वयं षड्वादने पठामः वि स्टडि एट् सिक्स् ओ क्लाक् सो सो देट् इस् अ वर्ड् कदा नौ वि विल् डू द सप्तमी विभक्ति Is it okay to move next to Saptami Vibhakti? Kada Shabda is clear or do you want to try it with any word? Anybody want to try with the Samya? Okay. So let's move on to Saptami Vibhakti. Chashakaha Asti. जलमस्ति चषके जलमस्ति चषकः अस्ति जलमस्ति सो टु आब्जेक्ट्स् आर् देर् चषकः अस्ति जलमस्ति चषके जलमस्ति जलं कुत्र अस्ति जलं चषके अस्ति जलं चषके अस्ति विमानम् अस्ति यात्रिकाः सन्ति, यात्रिकाः सन्ति, विमाने यात्रिकाः सन्ति, यात्रिकाः कुत्र सन्ति, यात्रिकाः विमाने सन्ति। अस्तु, कक्षा अस्ति, छात्राः सन्ति, कक्षा अस्ति, छात्राः सन्ति, कक्षायां छात्राः सन्ति। कक्षा स्त्रीलिङ्गशब्दः अस्ति, चषकः पुल्लिङ्गशब्दः अस्ति, चषकः पुल्लिङ्गशब्दः अस्ति, विमानं निपुंसकलिङ्गः शब्दः अस्ति, विमानं बिकम्स् विमाने, विमानं विमाने भवति सप्तमी विभक्त्यां। कक्षा स्त्रीलिङ्गशब्दः अस्ति, कक्षा अस्ति, छात्राः सन्ति, कक्षायां छात्राः सन्ति, कक्षायां छात्राः सन्ति। कूपी अस्ति, कूपी ईकारान्तः स्त्रीलिङ्गशब्दः अस्ति, कूपी अस्ति। मशी अस्ति, मशी इस् इङ्क्, मशी अस्ति, कूप्यां मशी अस्ति, कूप्यां मशी अस्ति। सो सप्तमी विभक्ति, इन् सप्तमी विभक्ति पुल्लिङ्गशब्दः बिकम् गोस् टु ए, अकारान्तः पुल्लिङ्गशब्दः रामः सप्तमी विभक्त्यां रामे भवति। वनं सप्त निपुंसकलिङ्गशब्दः वनं सप्तमी विभक्त्यां वने भवति। लता स्त्रीलिङ्गशब्दः आकारान्तः स्त्रीलिङ्गशब्दः सप्तमी विभक्त्यां लतायां भवति। नदी स्त्रीलिङ्गशब्दः ईकारान्तः शब्दः अस्ति, नदी नद्यां भवति, नद्यां। भवान् भवति, भवति भवत्यां, भवति ईकारान्तः शब्दः अस्ति, भवत्यां भवति सप्तविभक्त्यां। भवान् भवान् पुल्लिङ्गशब्दः अस्ति, सप्तमी विभक्त्यां भवति भवति भवति। अहम् अहम् उत्तमपुरुषः शब्दः, अहम् अस्मद् शब्दः अस्ति, अहं मयि भवति सप्तमी विभक्त्यां मयि शब्दः भवति। सो लेट्स् ट्रै सो नौ लेट्स् रिपीट् दिस् फोर् एक्साम्पल् बुक् इस् देयर् बुक् इस् देयर् this what do you call a book?
Pustakam.
Pustakam. Pustakam asti. Now papers are there in the, paper parnam. Parna pat or patram, you can say patram. Patram santi, patrani santi. Patrani santi, papers are there, patrani santi. So where are the papers? They are in the book. They are in the book. So, pustake, pustake patrani santi. In the book, there are papers. So, the object where it is, the things are, that becomes the saptami vibhakti. That word becomes the saptami vibhakti. So, let's say, take another example. Graham asti. Graham, the house is there. Graham asti. Graham asti. Grahe parivaraha vasati. Grahe. That Graham will become Grahe because there are people in the house, parivar. Or they, you could say grahe, anything can be there. There are so many things in the house. Grahe sanganikam asti. सङ्गणकं दट् मै कम्प्यूटर् मम मम सङ्गणकं गृहे अस्ति सो ऐ कुड् से मै कम्प्यूटर् इस् इन् द हौस् सो इफ् ऐ एम् औट्सैड् ऐ मै से so another example syutah asti syutah syutah is bag or purse syutah asti syutah asti dhanam kutra asti syute dhanam asti so it is in the bag syute dhanam asti so when we have ekaranta istriling shabdah like we have seen kupi kupi is ekaranta it ends in e so that will become kupiyam so you will remove the e last e and add yam to the end kupiyam like nadi becomes nadyam kupi becomes kupiyam But when it ends istriling shabdha, when it's akaranta, when it's end with a, kaksha, sita, mata, this is akaranta. Akshamita, mata is not akaranta. Mata is not akaranta.
Nadi, nadi is striling?
Yeah, nadi is istriling shabdha. So then you will use... you will kaksha kakshayam bhavati so kaksha will become kakshayam so is it clear now how the different forms will change yeah, I will give more examples in a minute
yeah,
hmm?
Yeah. Okay. Thank you
so let's
madam,
see
one question one question madam
yes please ask please
can you also say छात्राः कक्षायां सन्ति आर् इट् शुड् आल्वेस् बि कक्षायां छात्राः सन्ति
नो द थिङ्क् देट् इस् बिकम्स् सो इफ् यु थिङ्क् इन् टर्म्स् आफ् इङ्ग्लिश् फस्ट् ऐ विल् ट्रै टु एक्स्प्लेन् वित् इङ्ग्लिश् अण्ड् देन् इन् हिन्दी पासिबलि सो फोर् एक्साम्पल् वि हेव् युवर् क्वश्चन् इस् यु केन् से छात्रा छात्राः कक्षायां सन्ति यु कुड् से कक्षायां छात्राः सन्ति इस् दट् वाट् युवर् क्वश्चन् वास्
क्वश्चन्
या सो यु केन् चेञ्ज् द आर्डर् देट्स् नाट् ए प्रोब्लम्
No, what I'm saying is, what is the actual, is there a difference? That means, in this time, that means the emphasis is on chatraha or emphasis on kakshayam, that's what I'm asking.
There is no emphasis. There is no emphasis at all. Chatraha santi. Chatraha exist. They are there. Chatraha are there. Students are there. Chatraha santi. And where are they? Kutra santi. Chatraha kutra santi. Where are the students? Chatraha kakshayam santi. They are in the classroom.
Okay.
They are in the classroom.
Okay. Thank you.
So here in the second example, it was, where is the ink? Mashi. Mashi kutra asti. Mashi kupyam asti. So it is in the pot. Kupi. It is in that pot. So kupyam asti. So in the first example we said where is the water jalam kutra asti jalam chashke asti jalam chashke asti yatrikaha kutra santi where are the travelers they are in the viman they are in the aeroplane vimane yatrikaha santi so take another example stage is there stage manchah asti manchah asti stage is there nartaki asti nartaki the dancer is there nartaki asti so if I ask a question nartaki kutra asti or nartaki kutra nrityati where does she dance nartaki manche nrityati manche because manchaha is pulingaha shabdah akarantah manchya becomes manche Then another example, vidyalayam, vidyalayam, vidyalayam asti, chhatraha patati, chhatraha patanti, chhatraha patanti, chhatraha kutra patanti, chhatraha vidyale patanti, chhatraha vidyale patanti. Astu. अन्य उदाहरणमस्ति वित्तकोशः अस्ति बैंक वित्तकोशः अस्ति वित्तकोशः अस्ति धनमस्ति धनं कुत्र अस्ति धनं वित्तकोशे भवति और अस्ति धनं वित्तकोशे अस्ति दैट मनी इज इन द बैंक धनं वित्तकोशे भवति अनदर एग्जांपल नौका अस्ति नौका Noka is the boat. Noka asti. Nadi asti. Noka asti, nadi asti. Noka kutra asti. Noka nadyam asti. That it is, nadyam chalati. That it, it's in the nadi. It's in the river. Another example. Devaha asti. Devaha is asti. Mandiram asti. Devaha kutra asti. Devaha mandire asti. Devaha mandire asti. Jalam asti. Jalam asti droni asti. Droni ikarantaha istriling shabdaha asti. Droni. Droni is the bucket. Bucket. Droni asti. Jalam kutra asti. Jalam drone asti. Jalam drone asti. Jalam nadyam asti. Jalam chashike asti. Astu, another example, phalam asti. Phalam asti, vrikshah asti. Vrikshah asti, phalam asti. Phalam kutra asti? Phalam vrikshe asti. फलं वृक्षे अस्ति अन्य उदाहरणमस्ति कार्यानमस्ति कार्यानमस्ति रोड् इस् देयर् मार्गमस्ति कार्यानमस्ति मार्गमस्ति कार्यानं कुत्र अस्ति कार्यानं मार्गे अस्ति इस् दट् क्लियर् नो
यस् थेङ्क् यू
Okay, so let's try making few sentences using Saptami Vibhakti. You can think of things around you and say where it is. Kutra asti. So, another example could be Utpetika. Utpetika is table. Utpetika is Akaranta Istriling Shabdaha asti. Istriling Shabdaha. So, it will become Pustakam. Pustakam utpetika yam asti. That book is on the table. So if you are thinking in terms of English, whenever there is on or in the sentence, that book is on the table, water is in the glass, then you will use Saptami Vibhakti. Saptami Vibhakti is it gives the adhar. Adhar is that it gives the support of something. For example, if I'm saying Aham Bhumiyam Tishthami, that I stand on the earth. So Bhumi is Ikaranta Istriling Shabdaha Asti. So then it becomes, and it is giving me support that I can stand on the Bhumi, on the earth or floor. Then that becomes Bhumiyam. That shabd that is giving you the foundation, the base, that will become Saptami Vibhakti. So let's try making some sentences. Aparna Bhagini, can you make a sentence using anything that is around you?
Any word?
Anything that you can think of around.
Okay. Chennai Nagare Mama Sakhi Vasati.
Very good. That Mama Sakhi सखी अस्ति, नगरम् अस्ति, नगरम् अस्ति. सो सखी कुत्र वसति? सखी चेन्नै नगरे वसति. So nagaram becomes nagare, saptami vibhakti, because that is giving you the foundation or the adhar. So she lives in the town, Chennai nagare. She lives in that town. Very good, Gopagini. Krishnan Mohode?
Simha asti, maham asti, simha, vane simha asti.
Very good. सिंह वने अस्ति, वने सिंह अस्ति. वेरी गुड. सो वनम अस्ति, सिंह अस्ति. यस, गो ऑन.
हेलो,
यस, यू कैन ट्राई वन मोर.
विद्यालय अस्ति, छात्रा अस्ति, छात्रा विद्यालये अस्ति.
हा, छात्रा विद्यालये अस्ति,
विद्यालये अस्ति.
वेरि गुड्. नौ अमित महोदय, नेक्स्ट् वन्.
वृक्षे अस्ति,
वृक्षः अस्ति,
वृक्षः अस्ति, एण्ड् हौस् इस् गृहं, रैट्?
हा, गृहमस्ति,
अस्ति, वृक्षः अस्ति, गृहे वृक्षः अस्ति,
गृहे वृक्षः अस्ति. सो इन् हियर् द ग्रामेटिकलि इट् इस् करेक्ट् दट् इन् द हौस् देर् इस् ट्री.
Yeah, I didn't want to say a tree actually. I wanted to say like a small pot in a tree, but I didn't know the word for that.
Sasyani. The sasyani is like the, you know, that lots of plants, little plants.
Sasyami. Grahe sasyami asti.
Sasyani santi in that case.
Okay, grahe sasyani santi.
So grahe sasyani santi. So, yes. So next is, I lost the screen. नेक्स्ट् रामस्वामीजि.
मम उपनेत्रम् अस्ति, कार्यानम् अस्ति, मम उपनेत्रं कार्याने अस्ति.
वेरि गुड्. मम उपनेत्रं कार्याने अस्ति. सो नेक्स्ट् दीपन् महोदय.
जले मत्स्य अस्ति.
क्षम्यतां, जले
मत्स्यः अस्ति. फिश् इन् दि वाटर्.
ओ, मीनाः जले सन्ति. मीने मीनाः सन्ति, बिकास्
जले अस्ति. मीनाः
जले,
वन् मीना एण्ड्
मीना. मीना जले अस्ति, मीनाः जले सन्ति.
ओके, सन्ति. ओके,
ओके, धन्यवादः. वेरि गुड्. सीमा भगिनि.
ओके, वट् इस् ट्रेन् इन्
रेलयानम्?
रेलयानम्, ओके. रेलयानम् अस्ति. वट् इस् स्टेशन्? स्थानक, रेल् स्थानक, रेल स्थानक.
रेल स्थानकं, बट् यु आर् ट्रैङ्ग् टु से द स्टेशन्.
या, या. रेलयानम् अस्ति, रेलस्थानकम् अस्ति, रेलयानं रेलस्थानकम् अस्ति.
रेलस्थानके, देट् विल् बिकम् स्थानके इन् देट् केस्.
रेलयानं रेलस्थानके अस्ति.
अस्ति. सो for example, pictures are there. So pictures are there. Chitrani santi, chitrani santi, chitrani, chitrani pustake, pustake santi, pustake, that they are in the book. Or you could say bhiti. Bhiti is the wool. Bhiti. So that is bhiti.
Means what?
Bhiti is the wool.
Okay.
So chitrani bhityam santi.
Okay.
That it is on the wall.
Mm-hmm.
Okay. So now what we will do? Let's see. So we've seen that. So I think, for example, there are more words like tasmin, saha, tasmin. So saha is he. A pulingaha shabdaha saha, not when it's like we said saha vrikshaha, that is a tree, saha vrikshaha. Tasmin vrikshe, in that tree, phalani santi, tasmin vrikshe. So saha vrikshaha asti. Tasmin vrikshe patrani santi, parnani santi. So in that tree there are leaves. Tasmin vrikshe khagaha vasanti. That in that tree there are birds live there. Tasmin vrikshe. Tasmin grahe. Tasmin grahe. In that house. Tasmin grahe mam sakhi vasati. In that house my friend lives there. Then istriling shabdaha sa asti. Sa vatika, that vatika or garden. Sa vatika. Tasyam vatikayam, in that garden, tasyam vatikayam, Sita vasati. In that vatika, Sita vasati. Tasyam. Then the shabd is tasmin for neuter. Neuter, saptami vibhakti is tasmin. Tasmin vimane, balakaha gachati. Tasmin vimane, in that plane, that balaka travels. Balakaha goes. So tasmin, then shabdaha, prashnavachak shabdaha. For example, we have kaha, saha vrikshaha, kaha vrikshaha, kaha. Kaha is prashnavachak shabdaha. Kaha vrikshaha, saha vrikshaha. So which tree? That tree. Kaha vrikshaha. Kasmin vrikshe phalani santi. In which tree? Fruits are there. Kasmin. Kaha becomes kasmin. Then prashnavachak shabda for istriling shabda is ka. Ka sita. Who is sita? Ka sita. Ka vatika. Ka vatika. Ka nadi. Ka mati. Ka ka, another shabd for ka, we can say ka lata. Ka lata. Lata is the creeper, the little the bell in Hindi, bell. Ka lata. Ka nadi. Ka ka mata. Ka ka sakhi. Ka kasyam. Kasyam. So in which kapatikayam, for example, in which kapatika is the cupboard. So that is stirling shabdaha. Ka kapatika, which kabat, ka kapatika, ka nadi. Then that will becomes in which cupboard, for example, we can say vastram kutra asti, vastram kapatikayam asti. So then question might become, in which cupboard vastram asti, in which cupboard clothes are there. So then it might be kasyam kapatikayam vastram santi, in which cupboard clothes are there. Then shabdah, neuter shabdah, kasmin, kim shabdah asti, that becomes kasmin in saptami vibhakti. So like udhyanam asti, udhyanam, kasmin udhyane krida bhavati, in which garden the krida happens, kasmin udhyane krida bhavati. So kaha, ka, kim. Saha, sa, tas. So saha becomes tasmin, sa becomes tasyam, tas, tat becomes tasmin. Kaha, kasmin, ka, kasyam. Kasyam, kim becomes kasmin. Same goes for eshaha, esha, etat. Etasmin, etasyam, etasmin. So I think if we practice these one first, and then we will go for some more. So let's just say, let's practice just for saha, tasmin, just pulling shabdaha, kaha, kasmin, eshaha, etasmin. Then please give me an example for saha, saha, tasmin. So pulling shabdaha, saptami vibhakti, tasmin. Pulling shabdaha, kaha asti pulling shabdaha. Pulling shabdaha, ramaha asti. Pulling shabdaha, manchaha asti. Pulling shabdaha, another granthaha asti, granthaha. Pathaha asti, shlokaha asti, shlokaha. Chhatraha, adhyapakaha, pulling shabdaha. Another pulling shabdaha, let me give you some more pulling shabdaha. So, let's see another pulling shabdaha. So let's see. So these are some of the words, just to give you an idea. Sainikaha, sainika pulling shabdaha. Gajaha, gajaha is pulling shabdaha. Parvataha, pulling shabdaha. Chamasaha, pulling shabdaha. Chashikaha, makaraha. Marjaraha, marjaraha, simhaha, vyagraha, that real yanam is not, sang, no, vedyaha, vedyaha, pulling shabdaha, so prakoshtaha, pulling shabdaha. So now I think you should be able to make some sentences using the pulling shabdaha only. I think if we just leave it to this one. So let's try to make some sentences using saha. Saha prakoshtaha dwaramasti. Saha prakoshtaha. Kaha prakoshtaha? Saha prakoshtaha dwaramasti. Kasmin prakoshte dwaramasti? Tasmin prakoshte dwaramasti. So like that. So let's start with Aparna Bhagini. Can you make any? You can choose any. You don't have to use prakoshtaha. You can use any.
Okay. Kasmin kasmin vane vyagraha asti. Where is the lion? Lion, right?
Vanam. Vanam is neuter.
So, when I say kasmin vane vyagraha asti, answer will be tasmin vane vyagraha asti. Right?
Correct, correct. But
so
only
tasmin, yeah, tasmin is
that.
And
in that.
This.
Etasmin this. In that. Not that. In that. So in this or in that. Tasmin. Tasmin. I think tasmin. This. Okay. You will not use, you could say tasmin with vane, tasmin vane. But vanam is actually neuter.
Okay.
But it luckily we have tasmin for both of them. Tasmin okay. for neuter as well as for pulling shabdaha. So grammatically that is correct. So any next, Krishnan Mohdai, can you try to make a sentence kindly?
सीताः तस्यां गृहे अस्ति सीताः तस्यां गृहे अस्ति
सीता
तस्यां गृहे अस्ति
देर् इस् Just one second. Sita asti. Sita, it does not matter what gender is it. Sita asti. Sita asti. Graham asti. Now, Graham is, where does Sita asti? Sita, Grahe asti. So, Grahe is Nipunsakling Shabdaham. So, that will become Grahe asti. Sita grahe asti. Because the word graham is neuter. So it does not matter what the object is in that place. So I think I'm not explaining very well. So for example, jalam asti, chashikaha asti. So gender of jalam is not important. Gender of the thing that is in that. For example, chashikaha. Chashika's gender, that will be chashike. Not the gender of the object is not important. The gender of the object which is giving the support, that goes into the saptami vibhakti. So here Sita asti, Sita grahe asti. So that will become tasmin grahe, not tasyam. Because Sita is a feminine. So it will, Sita's gender here is not important. The gender of the place where it is, that is important.
So we should say, Graham means that will come puliga. So we should say Graham Sita Tasmin Grahe Sita Asti.
Tasmin Grahe Sita Asti. So that is although that Graham is neuter. But it's still the same. But it's easy to, because we have Graham as a shabda, it's easy to use that. So for example, hastaha asti. Hastaha is hand. Hastaha asti, that is pulling shabdaha. Haste, haste, jalam asti. That water is in the hand. Haste, jalam asti. Kasmin haste jalamasti, mam haste jalamasti. If jalam is, water is in my hand. So, okay, next, Amit Mohdai, can you try a few sentences, this sentence, please?
Okay. Vatika asti.
No, we are doing the पुल्लिङ्ग् शब्दः. ओके, इट्स् फैन्, इट्स् फैन्, इट्स् फैन्, यु केन् यूस् वाटिका.
वानरा अस्ति, तस्मिन् वाटिके वानरा सन्ति.
सो इट् इस् वाटिका, वाटिका इस् स्त्रीलिङ्ग् शब्दः.
ओके ओके, सारी, ऐ थाट् इट्स् पुल्लिङ्ग् आर् न्यूट्रल्. ओके, सो सा वाटिका, तस्यं वाटि, तस्यं वाटिका वानरे सन्ति.
सो कस्यां, कस्यां वाटिकायां वानराः सन्ति? तस्यां वाटिकायां वानराः
सन्ति. तस्यां वाणि, तस्यां वाटिकायां वानरे सन्ति.
नो, वानराः सन्ति.
वानराः सन्ति. ओके, सोरि.
सो कस्यां वाटिकायां वानराः सन्ति, तस्यां वाटिकायां वानराः सन्ति. ओके, वेरि गुड्. नो रामस्वामीजी महोदय,
सः मण्डपः अस्ति, सः मण्डपे, सोरि, तस्मिन् मण्डपे नर्तकी अस्ति.
कस्मिन् मण्डपे,
कस्मिन् मण्डपे कस्मिन् मण्डपे अस्ति, तस्मिन् मण्डपे नर्तकी अस्ति.
तस्मिन् मण्डपे नर्तकी अस्ति. औदो मण्डपः, वेन् यु से मण्डपः, देन् ऐ थिङ्क् आफ् सम् रिलिजियस् प्लेस्. मण्डपः अस्ति, सो
नाट् द स्टेज् इस् इट्?
मञ्चः, मञ्चः इस् द स्टेज्. मञ्चः
स्टेज्. ओके,
सो ऐ वुड् से भक्ताः सन्ति. वेन् ऐ से मण्डपः अस्ति, मण्डपे भक्ताः सन्ति, मञ्चे नर्तिकी अस्ति. मञ्चे, वेरि गुड्. सो कस्मिन् मञ्चे नर्तकी नृत्यति? तस्मिन् मञ्चे नर्तकी नृत्यति. नेक्स्ट् इस् दीपन् महोदय.
कस्मिन् बालकः अस्ति, तस्मिन् विद्यालयं बालकः अस्ति.
कस्मिन्, कस्मिन् पुनः वदतु महोदय. कस्मिन्
बालकः अस्ति,
कस्मिन् बालकः, कस्मिन् बालकः अस्ति. सो यु से कस्मिन् इन् वे बालकः, कस्मिन् बालकः, कः कः बालकः, कः बालकः. सो यु आर् सेयिङ्ग् कस्मिन् बालकः अस्ति.
कस्मिन् बालकः अस्ति, तस्मिन् विद्यालयं बालकः अस्ति.
सो देट् विल् बि, यु मैट् से कुत्र बालकाः सन्ति, ओर् कुत्र बालकः, कुत्र बालकः, ओर् बालकः कुत्र अस्ति, बालकः, बालकः विद्यालये अस्ति. कः, कस्मिन् विद्यालये बालकः अस्ति, तस्मिन् विद्यालये बालकः अस्ति. सो इन् विच्,
कस्मिन्,
कस्मिन् विद्यालये बालकः अस्ति, इन् विच् विद्यालये बालकः,
विद्यालये बालकः अस्ति, तस्मिन् विद्यालये बालकः अस्ति.
वेरि गुड्. ओके, कस्मिन् विद्यालये, तस्मिन् विद्यालये, कस्मिन्, तस्मिन्, कस्यां, तस्यां. सो पाठशाला अस्ति, कस्यां पाठशालायां विद्या बालकाः पठन्ति? कस्यां, इन् विच् स्कूल्, कस्यां पाठशालायां, इन् विच् स्कूल् बालकाः पठन्ति? सो तस्यां पाठशालायां,
तस्यां पाठशालायां बालकः पठन्ति.
वेरि गुड्. सीमा भगिनि.
कस्मिन् कार्यालये भवान् अस्ति? Means where, which office do you work? Is it correct?
Yeah, kasmin vidyalaye bhavan karyam karoti.
Okay.
Kasmin vidyalaya, kasmin karyalaye
bhavan, okay,
karyam karoti. So bhavan is vocative, like it's to address somebody, sambodhanam. भवान् कस्मिन् विद्यालये कार्यं करोति? सो इन् विच् आफीस् डू यू वर्क्? अस्मिन् कस्मिन् कार्यालये मिन्स् कार्यालये. ओके,
कार्यालये भवान् अस्ति. ओके, सो द आन्सर् विल् बि इन् द सिटि सेण्टर् आर् वाट् यू काल् इट् हियर् लैक्
So then you could say tasmin sthane, or you could just say nagare.
Nagare, okay. Tasmin nagare karyalaye bhavan asti.
Tasmin nagare, in that city, karyalaye. क्षम्यतां, कार्यालये अस्ति. कार्यालये अस्ति, सो यु वुड् से दट् इन् दट् सिटि कार्यालये अस्ति. सो यु वुड् नाट् यूस् लैक् इन् दट् सिटि, इन् दट् सिटि आफीस् इस् गेर् भवान् इस् गेर्. सो यु आर् सेयिङ्ग् महोदयस्य. सो केन् यु युर् सेण्टर्स् भगिनि कस्मिन् नो सेम् सेम् केन् यु रिपीट्
कस्मिन् कार्यालये भवान् कार्य करोमि?
कार्यं करोति.
करोति, ओके, कार्यं करोति. तस्मिन् तस्मिन् नगरे कार्यालये अस्ति.
हा, तस्मिन् नगरे कार्यालये अस्ति. तत्र, सो यु मेक् स्माल् स्माल् सेण्टेन्सेस्. तत्र तत्र अहं कार्यं करोमि, देन् यु कुड् से देयर् ऐ वर्क्. तस्मिन् नगरे कार्यालयम् अस्ति, तत्र देयर् ऐ वर्क्. वेन् यु मेक् बि करेक्ट्, वेन् यु ट्रै टु मेक् ए दीर्घ वाक्यं, देन् देर् आर् चान्सेस् देट् यु विल् मेक् एन् एरर्. Okay, so try to make it limited to 3 to 4 letters in a sentence, not more.
Okay,
so now we have tasmin pasyam tasmin, and etasmin etasyam etasmin. Purvaha purvasmin. पूर्वः पूर्वस्मिन्, दट् इट् बिफोर् दट् इन् पूर्व अस्मिन्. सो इन् द पास्ट् यु मैट् से इन् 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 बिफोर् पूर्व पूर्वस्यां, पूर्वं पूर्वस्मिन्, परः परः परस्मिन्, परस्यां, परं परस्मिन्. सो इट्स् अ सेम् द वर्ड् इस् पूर्वम्. Purvam in all the three genders, that Purvam Paraha, Purvam before, Purva. So if you have to say Purva, Purvam Samayaha, so that depends what your second word is. So you will use, in that sense, you will use either Purvasmin or Purvasyam. So you might say पूर्वस्मिन् समये. समय इस् बिकोस् समय इस् पुल्लिङ्ग् शब्दः, So that is why it will become purvasmin. In the time before, I was doing this. So paraha, paraha, after that, later, paraha. So then practice parasmin. Anyasmin, in some, anya is something else, anya. Anya, anya, anya samayaha. Anya, anyasmin samaye. Anya, some other time, anyasmin samaye. Anyasmin. Ekasmin, ekasmin, in ekasmin chashike, in one of the ekasmin tumbler, in one of the chashikaha, in one of the tumbler. Eka, eka nadi, in one river, in one river. Ekasmin nadyam, ekasmin nadyam. Ekam phalam, ekasmin phale. Eka, ekaha, samyaha, ekaha, samyaha, ekasmin samaye. Eka nadi, ekasyam nadi. Ekam phalam, ekasmin phalam. So these are the ekaha, eka, ekam, purvaha, purva, purvam. These will, all these will become, are considered as, like adjective to the word. So when we are using, then adjective normally goes exactly the same as the word itself. So if we are saying purvaha samayaha, then we will have to say purvyasmin samay, in the time. So I can't think of the word for Sriling Shabda that will go with here in terms of time. But these will, the point is here that these are the adjectives to be used of the same thing that you are using for. If you are using, for example, in here we have used Ekaha Samyaha, Ekasyam Nadyam, and Ekasmin Phalam, Phale, Ekasmin Phale. So we can use these as adjectives using the same vibhakti. It has to be the same vibhakti. So now, for example, here, sarvaha, sarvasmin, in all. Sarvaha, sarvasmin. Sarvasyam, in all. When sarva, sarva mahilaha, sarva mahilaha, sarvasyam mahilayam, sarvasyam mahilayam, sarvasmin, sarva, sarvasmin phalam, phalani, sarvasmin phaleshu, sarvasmin phaleshu, sarvasyam nadishu, sarvasyam nadishu, sarvasmin sarvasmin ram, you for example, yuvakaha, sarva yuvakaha, sarvaha yuvakaha, sarvasmin yuvakeshu. So I will leave that for as a homework to make more sentences, think of it, and we will discuss more this in the next class.
Madam, one small doubt, madam.
Yes.
Paraha means, what is the meaning, exact meaning? Paraha, that means, I understand purva means before, paraha means after, is it? Hello?
Yes, I am coming to that. Paraha, purvam is clear, right?
Purvam is before, as it is clear.
So,
hello?
Thank you.
हलो
हलो परः मीन्स् एनदर् ओर् लेटर्
सो
लेटर् आफ्टर् लेटर् ओर् अदर् लैक् परः टर्न्ड् अवे
thank you thank you
param you will say but param paraha param param is but
like,
we will have to make two sentences we will what we will do for all these sentences I will report them we make them at home during this week and we will take the examples next week. Yes, I have not written examples so that I could not give you many examples. So I will write it as well myself to give you more examples and we will discuss it next week. Is that okay for you?
It's fine, ma'am. It's very useful yeah. for us.
Okay, so I will give more examples next week. So now, let's do the song that we did not do in the beginning.
Excuse me?
Yes.
One comment, madam. In the Google document website, last week's slide has been replaced by this week's slide. So last week's slide is missing. So when you upload this week, you can correct it, please.
Okay, thank you. I did not...
last week's slide was there till yesterday, but then somehow today when the morning when I went in, I found this slide rather than the last week's slide.
Oh, okay. My mistake.
Thank you.
Okay. Okay, let's do the song now. We've got only about 10 minutes. So, kindly try to say it, repeat. Avanitalam Purna Avanitalam Purna Purna क्षम्यतां मै ट्यून् इस् गान् अवनितलं पूर्णवर्ति अवनितलं पूर्णवर्ति पूर्णवर्णिता स्यात्
संस्कृतगङ्गाधारा
धीरभगीरथ वंशोऽस्माकं निर्धारा अवनितलं पुनर्वर्तिना अवनितलं पुनर्वर्तिना स्यात् संस्कृतधारा धीरवंशोऽस्माकं वयं तु कृतनिर्धारा वयं तु अवनितलं
पुनर्वर्तीर्ण स्यात् संस्कृतगङ्गाधारा धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारः
सो लेट्स् स्टार्ट् फ्रोम् बिगिनिङ्ग् अगेन् अवनितलं
अवनितलं पुनर्भर्ति संस्कृतगङ्गाधारा.
Yeah, but let's try together, huh?
Okay.
Avanitalam punarvartina syat.
Avanitalam punarvartina syat.
Sanskrit Ganga Dhara.
Sanskrit Ganga Dhara.
Dheer Bhagirath Vansho Asmakam.
धीरभगीरथवंशोऽस्माकं
वयं तु कृतनिर्धारा
वयं तु कृतनिर्धारा
वयं तु कृतनिर्धारा
वयं तु कृतनिर्धारा
निपततु पण्डित हरशिरसि
निपततु पण्डित हरिशिरसि
प्रवहतु नित्यं वद प्रवहतु नित्यं इदं वचसि
प्रवहतु नित्यमिदं वचसि
प्रविशतु
प्रविशतु वैयकरणमुखं
प्रविशतु वैयाकरणमुखं व्याकरणमुखं प्रविशतु वैयाकरणमुखं प्रविशतु वैयाकरणमुखं
प्रविशतु वैयाकरणमुखं
पुनरपि वहितान् जान मनसि
पुनरपि वहितान् जान मनसि
मनसि
पुनरपि वहितां जनमनसि
पुनरपि वहितां जनमनसि
मनसि
पुत्रसहस्रं समुद्धृतं स्यात्
पुत्रसहस्रं समुद्धृतं स्यात्
यान्तु च जन्म विकारा
यान्तु जन्म
विकारा यान्तु च जन्म विकारा
यान्तु च जन्म विकारा
ग्रामं ग्रामं गच्छाम संस्कृतशिक्षां यच्छाम
संस्कृतशिक्षां यच्छाम
सर्वेषामपि तृप्तिहितार्थम्
सर्वेषामपि तृप्तिहितार्थम्
स्वक्लेशं नाहि गणयेम
स्वक्लेशं नाहि
गणयेम
कृते प्रयत्ने किं न लभेत्
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 एवं सन्ति विचारा
एवं सन्ति विचारा
धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा
धीरभगीरथवंशोऽस्माकं वयं तु कृतनिर्धारा
वयं तु कृतनिर्धारा
वयं तु कृतनिर्धारा
या माता संस्कृतमूला
या माता संस्कृतमूला
यस्य व्यापति सुविशाला
यस्य व्यापति सुविशाला
वाङ्गमयरूपासभवतु
वाङ्गमयरूपासभवतु
लसतु चिरं सावं
लसतु चिरं सावन वाङ्माला
सुरवाणी जनवाणी कर्तुं
सुरवाणी जनवाणी कर्तुं
यतामहे कृतिशूरा
यतामहे कृतिशूरा
धीरभगीरथवंशोऽस्माकम्
धीरभगीरथवंशोऽस्माकम्
वयं तु कृतनिर्धारा वयं तु कृतनिर्धारा
वयं तु कृतनिर्धारा वयं तु कृतनिर्धारा
अवनितलं पुनर्वर्ते वर्तेर्ना स्यात्
अवनितलं पुनर्वर्तीर्ना स्यात्
संस्कृतगङ्गाधारा
संस्कृतगङ्गाधारा
धीरभगीरथवंशोऽस्माकम्
धीरभगीरथवंशोऽस्माकम्
वयं तु कृतनिर्धारा वयं तु
कृतनिर्धारा वयं तु कृतनिर्धारा
धन्यवादः वी विल् मीट् नेक्स्ट् वीक्
धन्यवादः
वी केन् जस्ट् डू अ शान्तिमन्त्र जस्ट् बिफोर् वी गो ॐ सर्वे भवन् वी केन् डू इट् आल् टुगेदर्
ओके ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः सर्वे भद्राणि पश्यन्तु मा कश्चित् भवेत् ॐ शान्ति शान्ति शान्तिः